Sue. नमस्सर्वेभ्यः. पुनः मङ्गलाचरणश्लोकपुरस्सरमेव अस्माकम् आरम्भः स्यात्. ॐ गुणातीतोऽपि सः त्रिगुणसचिवस्त्रक्षरमया त्रिमूर्तिर्यः सर्गस्थितिनिलयकर्माणि तनुते कृपापारावार परमगति एकस्त्रिजगतां नमस्तस्मै कस्मै चितमितमहिम्ने पुरविदे. अस्तु, अस्माकं किञ्चिदिव पुनर्स्मरणरूपेण तत्र ध्वनिमुद्रणं निवेशितमासीत्, प्राप्तं खलु? किञ्चिदिव तत्र मुख्यांशानां मुद्रणं कृत्वा तत्र निवेशितमासीत्, प्राप्तमेव मन्ये.
प्राप्तं महोदय.
अस्तु, तर्हि तत्र किञ्चिदिव स्मरणरूपेण अस्माभिः तत्र एतावत्पर्यन्तं विशेषरूपेण मङ्गलस्य विषये एव चर्चा कृता. मङ्गलस्य समाप्तिसाधनत्वविषये, मङ्गलस्य समाप्तिसाधनत्वं नास्ति इति पूर्वपक्षी वदति, सिद्धान्ती वदति मङ्गलस्य समाप्तिसाधनत्वम् अस्तिरेव, सयुक्तिकं सर्वमपि प्रदर्शितं. तत्र युक्तिः तत्र आसीत् मङ्गलं वेदबोधितकर्तव्यताकम् अलौकिकाभिहितशिष्टाचारविषयत्वात्. तत्र किञ्चिदिव इदं प्राथम्येन तत्र अनुमानप्रमाणस्य प्रयोगः तत्र साध्यमासीत् वेदबोधितकर्तव्यताकत्वं, मङ्गलं पक्षः, हेतुः अलौकिकाभिहितशिष्टाचारविषयत्वम् इति आसीत्. एतत् सर्वम् अस्माभिः दृष्टमेव. तत्र व्यभिचारादिकं कथं तेषां निवारणं भवति, हेतुघटकदलानां कथं वा व्यभिचारपरिहारः एव प्रयोजनम् इत्यादि सर्वमपि अस्माभिः अवलोकितम्. इदानीं तत्र किञ्चिदिव अस्माभिः उक्तमासीत् तत्र मङ्गलस्य कार्यकारणभावविषये. तत्र किञ्चिदिव पश्यामः, पूर्वम् अस्माभिः दृष्टं तत्र शब्दात्मकस्य मङ्गलस्य तत्र कीदृशं कथं वा कार्यकारणभावः, कथं वा कार्यकारणभावः इति अस्माभिः दृष्टमेव आसीत्. शब्दः तत्र समवायनसम्बन्धेन, गुणः शब्दः इति कृत्वा आकाशे समवायनसम्बन्धेन भवति. तत्र तस्य अभावः स्वरूपसम्बन्धेन भवति. मङ्गलं शब्दात्मकं समवायनसम्बन्धेन, ध्वंसः अभावात्मकः तर्हि स्वरूपेण सम्बन्धेन, आकाशे तयोः सामानाधिकरण्यं. तर्हि तथा अस्माभिः तत्र कार्यकारणभावस्य निरूपणं कृतमासीत्. परन्तु अस्माभिः उक्तं तत्र मङ्गलस्य त्रैविध्यं वर्तते इति अस्माभिः उक्तमासीत्. नाम तत्र शब्दात्मकं मङ्गलं, ज्ञानात्मकं मङ्गलम्, अन्यच्च क्रियात्मकं मङ्गलम् इति अस्माभिः उक्तमासीत्. तर्हि प्रथमं तावत् शब्दात्मकस्य मङ्गलस्य कार्यकारणभावनिरूपणम् अस्माभिः कृतम्. इदानीं ज्ञानात्मकस्य मङ्गलस्य कार्यकारणभावनिष्पत्ति कथं वा वयं तत् सर्वमपि साधयितुं शक्नुमः, अत्र कार्यकारणभावः अस्ति अथवा कथं वा तस्य प्रदर्शनं कर्तुं शक्नुमः इत्युक्ते अत्र द्वेधा अपि कर्तुं शक्यते. नाम तत्र सामानाधिकरण्यम् आवश्यकं, यत्र कुत्रापि कार्यकारणभावः अस्ति वा न वा तस्य सम्पादनार्थं, कार्यकारणभावस्य सम्पादनार्थम् अस्माभिः कार्यस्य कारणस्य द्वयोः सामानाधिकरण्यं सम्पादनीयं भवति. कार्यमपि तत्र कारणमपि, नाम कारणेन कार्याधिकरणे भवितव्यम्. अस्माभिः तत्र विद्याधरीग्रन्थे तत्र निकषाः पठिताः, दृष्टाः एव. तत्र सामानाधिकरण्यम् अत्र प्रथमकल्पे, नाम तत्र यदा शब्दात्मकं मङ्गलमासीत् तस्मिन् कल्पे अस्माभिः कथं साधितम् इत्युक्ते आकाश अन्तर्भावेन द्वयोः अपि आकाशे एव सामानाधिकरण्यं साधितम्. अत्र ज्ञानात्मकं मङ्गलम् अस्ति चेत् तत्र बहुधा ग्रन्थेषु तत्र आकाशं स्वीकृत्य सामानाधिकरण्यं प्रदर्शितं न वर्तते. प्रायः तत्र ज्ञानात्मकं मङ्गलं तस्य विषये आत्मनि एव अन्तर्भाव्य तत्र कार्यकारणभावः प्रदर्शितः. किञ्चित् मया भिन्नरूपेण अपि अत्र योजितं वर्तते, अहं वदामि. तत्र पुनः आकाशे एव सामानाधिकरण्यं प्रदर्शयित्वा अपि वयं कार्यकारणभावस्य साधनं कर्तुं शक्नुमः. यदि आकाशे एव अन्तर्भावः क्रियते चेत् तत्र पुनः कार्यतावच्छेदकसम्बन्धः स्वरूपसम्बन्धः एव भवति. परन्तु यदा तत्र आत्मनि अन्तर्भाव्य आत्मनि एव सामानाधिकरण्यं क्रियते चेत् तत्र कार्यतावच्छेदकसम्बन्धः तन्न भवति. तथा करणे किं भवति? आकाशे एव सामानाधिकरण्यं साधयामः चेत् तत्र कथं वा कार्य तत्र कार्यकारणभावः भवति इति पश्यामः इदानीं। तर्हि ज्ञानात्मकं मङ्गलं नाम ज्ञानम् आत्मनि भवति, वयं जानीमः एव आत्मगुणः आत्मविशेषगुणः ज्ञानं। तर्हि ज्ञानम् आत्मनि भवति, ध्वंसस्तु कुत्र भवति? आकाशे भवति, नाम ग्रन्थचर्मवर्णध्वंसः, ग्रन्थचर्मवर्णध्वंसः एव समाप्तिः इति अस्माभिः दृष्टम्। तर्हि चर्मवर्णध्वंसः आकाशे विद्यते, वर्णः नाम शब्दात्मकः, शब्दात्मकः भवति चेत् श्रोत्रग्राह्यः शब्दस्य सदा सर्वदैव शब्दः आकाशे भवति, तस्य अभावोऽपि आकाशे, तत् नाम तत्र प्रध्वंस अभावोऽपि आकाशे। अस्तु, तर्हि इदानीं प्रथमं पश्यामः कथं वा आकाशे एव द्वयोः सामानाधिकरण्यं कर्तुं शक्यते इति पश्यामः। तर्हि किं करणीयम् इत्युक्ते, आकाशे ध्वंसः पूर्वमेव वर्तते, तस्य कृते न किमपि आवश्यकं, तत् तत्र तत्रैव अस्ति, सम्यक् एव। इदानीं ज्ञानं तु आत्मनि वर्तते, तर्हि सामानाधिकरण्यं कर्तव्यं चेत् ज्ञानं तत्र आकाशपर्यन्तं नेतव्यं भवति। तर्हि ज्ञानं केन सम्बन्धेन वयम् आकाशपर्यन्तं नयामः इति प्रश्नः। तर्हि अत्र वाक्यं वर्तते, अहं पठामि एकवारं, सावधानं शृणोति, तदनन्तरं किञ्चिदिव तत्र सूक्ष्मं चिन्तनं कुर्मः। तत्र तत्र तादृश क्लिष्ट तादृशं क्लिष्टं वाक्यं नास्ति। अत्र वाक्यं कथमस्ति इत्युक्ते, स्वप्रतियोगी चरमवर्णानुकूलकृतिमत्तासम्बन्धेन जायमानं समाप्तित्वावच्छिन्नं प्रति समवायेन तत्र समाप्तित्वावच्छिन्नं प्रति। इदानीं किं कृतम् इत्युक्ते, तत्र क्षम्यताम्, इदानीं प्रथमम् आत्मनि एव अन्तर्भाव्य सामानाधिकरण्यं सम्पादितः, तदनन्तरं पश्यामः कथम् आकाशे अन्तर्भाव्यते। प्रथमम् आत्मनि अन्तर्भाव्य, तर्हि स्वप्रतियोगी चरमवर्णानुकूलकृतिमत्तासम्बन्ध तत् नाम तत्र ध्वंसमेव इदानीम् आत्मपर्यन्तं नयामः। तर्हि ध्वंसं नयामः इति कृत्वा तत्र स्व इति पदेन ध्वंसस्य एव परामर्शः। तर्हि अत्र वाक्यं किमस्ति इत्युक्ते, स्वप्रतियोगी चरमवर्णानुकूलकृतिमत्ता कुत्र वर्तते इत्युक्ते आत्मनि वर्तते। कथम् इत्युक्ते स्वनाम स्वं नाम ध्वंसः, तर्हि ध्वंसः तस्य ध्वंसस्य प्रतियोगी कः? नाम अत्र ध्वंस नाम तत्र चरमवर्णध्वंसः एव, चरमवर्णध्वंसस्य प्रतियोगी कः? कोऽपि वदति वा?
चरमवर्ण,
चरमवर्ण, सत्यमेव। तर्हि स्वप्रतियोगी नाम ध्वंसप्रतियोगी, चरमवर्णध्वंसप्रतियोगी चरमवर्ण नाम स्वप्रतियोगी चरमवर्ण, तस्य वर्णस्य अनुकूलाकृति कुत्र वर्तते? नाम कृति नाम प्रयत्न,
तत्तु आत्मनि वर्तते,
आत्मनि वर्तते। अस्तु, तर्हि स्वप्रतियोगी चरमवर्णानुकूलकृतिमान् आत्मा कृतिमत्ता आत्मनि वर्तते, मत्ता नाम अत्र तल् प्रत्ययः। तर्हि स्वप्रतियोगी चरमवर्ण अनुकूलकृतिमत्ता सम्बन्धेन ध्वंसः कुत्र वर्तते? आत्मनि वर्तते। अस्तु, तर्हि इदानीं कार्यतावत् वच्छेदकसम्बन्धः स्वरूपसम्बन्धः नास्ति, इदानीं स्वप्रतियोगी चरमवर्णानुकूलकृतिमत्वम् अथवा कृतिमत्ता एव कार्यतावच्छेदकसम्बन्धः, ज्ञानं तु समवायेन अस्ति इति अत्र समन्वयः। समाप्तित्वात् अत्र वाक्यं किञ्चित् जटिलं वर्तते, परन्तु किमपि नास्ति, स्वप्रतियोगी चरमवर्णानुकूलकृतिमत्तासम्बन्धेन जायमानं समाप्तित्वावच्छिन्नं प्रति इति उक्तं। समाप्तित्वावच्छिन्नं किम् इत्युक्ते, समाप्ति नाम चरमवर्णध्वंसः, समाप्ति, तर्हि समाप्तित्वं चरमवर्णध्वंसे विद्यमानः धर्मः समाप्तित्वं, तर्हि समाप्तित्वावच्छिन्नं चरमवर्णः ध्वंसः अथवा समाप्ति, तदेव तत्र किञ्चित् भिन्नरूपेण उक्तमस्ति। समाप्तिः नाम ध्वंसः, समाप्तित्वावच्छिन्न समाप्तित्वं तस्मिन् वर्तमानः कश्चन धर्मः, समाप्तित्वावच्छिन्नं नाम तदेव ध्वंसः। तर्हि समाप्तित्वावच्छिन्नं प्रति नाम ध्वंसं प्रति समवायेन ज्ञानं कारणम् इति तत्र समन्वयः भवति। इदानीं पश्यामः, भो इदानीमहम् आत्म अन्तर्भाव्य कार्यकारणभावं मां साधयितुं न इच्छामि, इदानीम् आकाशे सामानाधिकरण्यस्य निर्वाहः कथं जायते इति किञ्चिदिव पश्यामः. तर्हि अत्र तत्र ग्रन्थे च न विद्यते, मया एव तत्र संयोजितमत्र. अत्र ज्ञानं नाम कुत्र वर्तते इत्युक्ते आत्मनि वर्तते. तर्हि तस्य ज्ञानस्य स्वं नाम ज्ञानं स्वसमानाधिकरण तस्य ज्ञानस्य अधिकरणमात्मा तस्मिन् अधिकरणे एव विद्यमानाया कृति स्वसमानाधिकरण कृतिविषय चर्मवर्णप्रतियोगिकध्वंसाधिकरणत्वं कुत्र वर्तते इत्युक्ते आकाशे वर्तते. नाम स्वं नाम ज्ञानं मङ्गलात्मक नाम ईश्वरस्मरणात्मकं ज्ञानं तस्य ज्ञानस्य समानाधिकरण्यं तत्र कृतौ वर्तते. स्वसमानाधिकरणकरणकृति स्वसमानाधिकरणकृति तस्याः विषयत्वं विषयचरमवर्णः कृति इच्छा ज्ञानम् इत्यादिकम् एते पदार्थाः सर्वे अपि नाम गुणाः सर्वे अपि सविषयकाः वयं जानीमः एव. तर्हि कृति भवति चेत् तत्र विषयोऽपि भवति. तर्हि कृतिविषयकः तर्हि चर्मवर्णप्रतियोगी यस्य तादृश अभावस्य अधिकरणतः आकाशः अधिकरणत्वम् आकाशे वर्तते. तर्हि तेन सम्बन्धेन इदानीं ज्ञानं वयम् आकाशपर्यन्तं नेतुं शक्नुमः. तर्हि स्वसामानाधिकरणकृतिविषय चरमवर्णप्रतियोगिकध्वंसाधिकरणत्वम् आकाशे वर्तते. तेन सम्बन्धेन ज्ञानम् आकाशे वर्तते. स्वरूपसम्बन्धेन चरमवर्णध्वंसः आकाशे वर्तते इति कृत्वा तत्र इदानीं कार्यतावत् वच्छेदकसम्बन्धः स्वरूपसम्बन्धः एव. तर्हि किञ्चिदिव समीकरणीयमासीत् इति मया पूर्वम् उक्तमासीत्, तदेव अत्र किञ्चिदिव समीकरणं नाम पूर्वमहम् उक्तवान् तत्र स्वरूपसम्बन्धेन एव कार्यतावच्छेदकसम्बन्धः. तत्र स्वरूपसम्बन्धेन नाम यदा आकाशे अन्तर्भाव्यसामानाधिकरण्यं सम्पादयामश्चेत् स्वरूपसम्बन्ध एव कार्यतावच्छेदकसम्बन्धः इत्येव अभिप्रायः. अस्तु, एतत् स्पष्टमस्ति वा? आम्.
अपि च यथा विद्याधरी पुस्तके अस्ति स्वम् इति ज्ञानात्मकं मङ्गलम् इति स्वीकृत्य आत्मा तस्य समवायी स्वसमवायीसंयुक्तः आकाशः, तर्हि स्वसमवायीसंयुक्तत्वसम्बन्धेन आकाशः इति वक्तुं शक्यते वा?
तदपि वक्तुं शक्यते, तदपि वक्तुं शक्यते. परन्तु अत्र कृतिविषय इति साक्षात् तेन सम्बद्धः इति कृत्वा किञ्चित् तदपि वक्तुं शक्यते इति मम चिन्तनं.
तद्वाक्यम् इतोपि एकवारं वदति वा महोदय?
स्वसमानाधिकरण कृतिविषय चर्मवर्णप्रतियोगिक ध्वंसाधिकरणत्वम् आत्मनि आकाशे विद्यते. स्वसमानाधिकरण कृतिविषय चर्मवर्णप्रतियोगिक ध्वंसाधिकरणत्वम्.
महोदय, अत्र प्रश्नः, आत्मा अपि विभुद्रव्यम्, आकाशः अपि विभुद्रव्यं खलु? तर्हि विभुद्रव्ययोः मध्ये संयोगसम्बन्धः भवितुम् अर्हति वा?
अत्र किञ्चित् चिन्तनं करणीयं नाम तत्र सत्यमेव उक्तम्, अत्र किञ्चित् तत्र समस्या अस्ति. तत्र विभुद्रव्याणां तत्र संयोगः न स्वीकृतः न्यायवैशेषिकः अस्ति द्वयोः. कुतः इति चेत् तत्र संयोगस्य कृते क्रिया आवश्यकी भवति इति तेषां चिन्तनं वर्तते. परन्तु विभुद्रव्याणां क्रिया एव न अन्वेति, तत्र क्रियायाः अन्वयः न भवति, क्रिया नैव जायते एव. तर्हि तत्र संयोगः न अङ्गीकृतः, परन्तु केचन अङ्गीकुर्वन्ति इत्यपि कुत्रचित् पठितं. तत्र उत्तमः प्रश्नः. रक्षा भगिनी, अत्र किञ्चिदिव समस्या अस्ति खलु? विभुद्रव्ययोः तत्र एवं सत्यमेव उत्तमः प्रश्नः. अस्तु, इदानीं तत्र क्रियात्मकं मङ्गलम् अस्माभिः ज्ञानात्मकं मङ्गलं दृष्टम्. इदानीं क्रियात्मकस्य मङ्गलस्यापि समन्वयः करणीयः वा अग्रे करामः?
कुर्मः महोदय.
महोदय, तत्र एकनिमिषः प्रश्नः, ज्ञानात्मकमङ्गलम् इत्युक्ते किम् इति किञ्चित् अधिकं वदति वा?
आं महोदय, केवलं ईश्वरस्मरणमेव.
अस्तु,
मनसि एव स्मरणं, बुद्धिः एव केवलं,
तावत्.
अस्तु, इदानीं तत्र क्रिया कुत्र भवति? क्रिया आत्मनि भवति वा?
शरीरे भवति.
शरीरे भवति. अस्तु, तर्हि इदानीं पुनः तत्र द्विधापि कर्तुं शक्यते. तत्र शरीरपर्यन्तं ध्वंसं, ध्वंसस्य आनयनम्, अथवा क्रियायाः आकाशपर्यन्तं नयनं तत्र कर्तुं शक्यते. अत्र किञ्चित् आम्, तत्र वाक्यं किमस्ति इत्युक्ते स्वप्रतियोगी. अत्र पुनः तत्र शरीरान्तर्भाव्य, नाम शरीरपर्यन्तं तत्र चर्मवर्णध्वंसम् आनेतव्यम् इदानीं. तत्र स्वः स्वप्रतियोगी चर्मवर्णानुकूलकृत्यवच्छेदकता. इदानीं किञ्चिदिव पश्यामः, तत्र कृति कुत्र वर्तते?
आत्मनि.
आत्मनि वर्तते, परन्तु तत्र नैयायिकानां चिन्तनं किम् अस्ति इत्युक्ते आत्मनि तु आत्मा विभूद्रव्यं, तर्हि कुत्र वर्तते? सर्वत्र वर्तते वा इत्युक्ते न सर्वत्र वर्तते. यथा ज्ञानमपि सर्वत्र न वर्तते, शरीरावच्छेदेन एव वर्तते इति नैयायिकानाम् अभिमतः, सिद्धान्तः. तर्हि क्रिया अपि तत्र शरीरे वर्तते, तर्हि शरीरं तत्र कृति अवच्छेदकमपि अस्ति. कुतः इति चेत् तत्र कृत्यवच्छेदेन एव, शरीरावच्छेदेन एव कृतिः भवति. शरीरं नास्ति चेत् तत्र कृति एव न भवति इति अर्थः. अस्माकं नाम तत्र जीवानाम्, ईश्वरस्य कृते तु भिन्नम्. अस्तु, तर्हि अत्र किं कृतम् इत्युक्ते स्वप्रतियोगी, स्वं नाम पुनः तत्र चर्मवर्णध्वंसः, स्वप्रतियोगी चर्मवर्ण अस्माभिः पूर्वमेव दृष्टं. वर्णानुकूलकृति कुत्र वर्त, वर्णानुकूलया कृति तस्याः कृत्याः कृतेः अवच्छेदकं यत् शरीरम्, अवच्छेदकता शरीरे वर्तते, तर्हि स्वप्रतियोगी चर्मवर्णानुकूलकृत्यवच्छेदकता सम्बन्धेन चर्मवर्णध्वंसः शरीरे वर्तते, शरीरे क्रिया समवायेन वर्तते इति कृत्वा द्वयोः इदानीं समानाधिकरण्यम्, अतः कार्यकारणभावः जातः. पुनः वदामि वाक्यं. आम्, प्रश्नः अस्ति वा? न. अस्तु, स्वप्रतियोगी, स्वं नाम पुनः तत्र चर्मवर्णध्वंसः, स्वप्रतियोगी चर्मवर्ण अनुकूलकृति कृत्यवच्छेदकता शरीरे, शरीरावच्छिन्नेन, शरीरावच्छिन्ना एव कृतिः भवति सर्वत्रैव. शरीरावच्छिन्ना कृतिः इत्युक्ते यदा तत्र शरीरयुक्त आत्मा, तदैव तत्र शरीरविशिष्ट आत्मनि एव कृति उत्पद्यते इति अर्थः. तर्हि विशिष्टत्वं नाम अवच्छेदकत्वं. तर्हि कृत्यवच्छेदकता शरीरे, कृत्यवच्छेदकता सम्बन्धेन वर्णध्वंसः शरीरे वर्तते, क्रिया नाम चेष्टा च, शरीरचरणादिकं तत्र द्वयोः हस्तयोः मेलनम् इत्यादिकं च क्रियात्मकं मङ्गलम् अपि शरीरे एव वर्तते इति कृत्वा तत्र कार्यकारणभावे, तत्र सामानाधिकरण्यं कार्यकारणभावः. पुनः इदानीं तत्र क्रिया अस्ति. यदि क्रियाम् आकाशपर्यन्तं नेतुम् इच्छामः चेत् कथं भवति इत्युक्ते पुनः कथं वक्तव्यं? पूर्वं तत्र स्वसमानाधिकरणम् इति उक्तमासीत्, इदानीं किं वदामासीत्? तत्र स्वाधिकरण, स्वं नाम अत्र क्रिया, क्रियायाः अधिकरणं किम् इत्युक्ते शरीरं. तर्हि स्वाधिकरणावच्छिन्ना कृति, क्रिया अधिकरण शरीर अवच्छिन्ना कृति विषय चर्मवर्ण प्रतियोगिकध्वंस, ध्वंसत्वं, ध्वंसाधिकरणत्वं कुत्र वर्तते इत्युक्ते पुनः आकाशे वर्तते, तथा एव सामानाधिकरण्यं साधितं भवति. नाम स्वाधिकरण, स्वाधिकरणावच्छिन्ना कृतिविषय चरमवर्णप्रतियोगिकध्वंस अधिकरणत्वम् आकाशे वर्तते इति अर्थः. आकाशे पुनः तत्र चरमवर्णध्वंसः स्वरूपसम्बन्धेन वर्तते. तर्हि ग्रन्थेषु पुनः इदानीम् एकवारं पुनः वदामि, ग्रन्थेषु तत्र केवलं शब्दात्मकस्य मङ्गलस्य यदा विवरणं क्रियते तदा एव आकाशे सामानादिकरण्यं तत्र साधितं दृश्यते. अत्र ज्ञानात्मकं मङ्गलस्य विषये तु सामानादिकरण्यम् आत्मनि एव कृतं. क्रियात्मकस्य मङ्गलस्य विषये सामानादिकरण्यं शरीरे एव कृतं, परन्तु मया किञ्चिदेव भिन्नरूपेण अत्र कुतः इति चेत् तत्र वृत्तिनियामकः सम्बन्धः नास्ति इति कृत्वा वयं तत्र सामानादिकरण्यम् आकाशे अपि कर्तुं शक्नुमः, सामानादिकरण्यं शरीरे अथवा आत्मनि अपि कर्तुं शक्नुमः इत्येव चिन्तनम्.
महोदय, परन्तु अत्र यथा पूर्वं रक्षाभगिन्या उक्तं तद्वत् शरीरम् इति पार्थिवद्रव्यमेव खलु, तर्हि तस्य संयोगः आकाशेन भवितुम् अर्हति. तर्हि अत्र
कर्तुं शक्यते, तत्र कर्तुं शक्यते.
विभुद्रव्याणां संयोगः एव न स्वीकृतः,
न स्वीकृतः द्विभुद्रव्ययोः न स्वीकृतः, परन्तु विभुद्रव्यमूर्तद्रव्य द्वयोः तु स्वीकृतः.
तत्र वृत्ति अनियामक इति अपि
तथापि अस्ति वृत्तिनि, तत्र केचन सम्बन्धाः वृत्तिनियामकाः सन्ति, केचन सम्बन्धाः वृत्तिनियामकाः न सन्ति. यथा संयोगः वृत्तिनियामकः सम्बन्धः, समवायः वृत्तिनियामकः सम्बन्धः, विषयविषयीभावः वृत्तिनियामकसम्बन्धः नास्ति. अत्रापि विषयविषयीभावः अस्ति, कृतिविषयता अस्ति, तत्रापि तत्र वृत्तिनियामकत्वं नास्ति. परन्तु शरीरस्य तु तत्र पुनः इदानीं प्रश्नः, तत्र आकाशे किमपि वर्तते वा इति प्रश्नः. आकाशस्य तत्र
शब्दः वर्तते,
आं शब्दः वर्तते, शब्दः तत्र समवायसम्बन्धेन शब्दः वर्तते. अस्माकं शरीरम् आकाशे वर्तते वा?
आम्,
आं तत्र किं चिन्तनम् इत्युक्ते, यदि तत्र आकाशे किमपि वस्तु यदि वयं स्थापयामः चेत् तत्र तिष्ठति वा इति प्रश्नः. अस्तु, तथा तत्र संयोगसम्बन्धेन वृत्तिनियामकत्वं नास्ति तत्र आकाशे भवति. तत्र नैयायिकः तत्र अहं पृष्टवान् अपि, एकं विद्वांसम् अहं पृष्टवान् तत्र संयोगसम्बन्धेन तत्र वृत्तिनियामकत्वम् अस्ति इति उक्तवान्. परमाणुं यदि आकाशे स्थापयामः चेत् तत्र आधाररूपेण आकाशः न भवति इति तेषां तस्य कथनम् आसीत्.
इत्युक्ते आकाशः अपरेषु भवति परन्तु विपरीत
आकाशः अपि कुत्रापि न भवति भगिनि. आकाशः वृत्तिमत् पदार्थः, वृत्तिमान् पदार्थः नास्ति, न कुत्रापि वर्तते आकाशः. अत्र किम् उक्तं भगिनि?
सूक्ष्मरूपेण आकाशः
हा वायुः सञ्चरन् भवति, तत् सत्यं, द्रव्यं सञ्चरन् भवति, परन्तु तिष्ठति इति आधाररूपेण इति न स्वीकृतम्. एवमेवं सत्यम्. अस्तु, तर्हि आकाशः कुत्रापि न भवति, तत् एषः मुख्यः सिद्धान्तः. अद्य पाठे तत् सर्वमपि वयं पश्यामः, तत्र कदाचित् यदि प्रसङ्गः भवति चेत् पश्यामः.
महोदय, एकः प्रश्नः, घटे आकाशः वर्तते, आकाशे घटः वर्तते इति
तत् भ्रमात्मकम् इति नैयायिकाः उक्तवन्तः. आकाशः विभु पदार्थः, कथम् आकाशः घटे भवितुम् अर्हति? तत्तु केवलं भ्रमात्मकं चिन्तनम् इति तेषां मतम्.
अस्तु अस्तु
महोदय, अपि च अस्माभिः यत् चिन्तितं प्रथमतया तद् किं स्व समवायिसंयुक्तत्वम् इति न वदामः, यतोहि विभुद्रव्ययोः संयोगः न भवति इति.
एवम्
परन्तु न्यायशास्त्रे संयोगः इति यः गुणः अस्ति तत् सर्वेषु द्रव्येषु वर्तते इति अपि उच्यते खलु. केचन गुणाः सर्वेषु वर्तते.
सत्यमेव. तत्र तर्हि मूर्तविभुद्रव्ययोः संयोगस्तु भवति एव खलु.
अस्तु, तत्रैव स्वीक्रियते संयोगः.
तत्रैव. एवम् एवम् अस्तु.
इदानीं तत्र क्रियात्मकमङ्गले किमर्थं चरमवर्णस्य चिन्तनं शब्दात्मकमस्ति चेदेव तादृशचिन्तनं, क्रियात्मकमङ्गले अपि शब्दात्मकमङ्गलम् इति स्वीकृतं वा?
न न, तत्र विषयः कः इत्युक्ते, केवलं कश्चन ग्रन्थकारः अस्ति, किं करोति इत्युक्ते केवलं तत्र शरीरचेष्टाद्वारा एव मङ्गलं करोति. केवलं द्वयोः हस्तयोः मेलनं, तत्र वक्षस्य उपरि स्थापनम्, एवं शरीर अधः कृत्वा एवमेवं करोति चेत् चेष्टाद्वारा मङ्गलं करोति. इदानीं चेष्टाद्वारा यत् मङ्गलं कृतं तस्य मङ्गलस्य समाप्तिसाधनत्वम् अस्ति वा न वा इति प्रश्नः अस्माभिः स्वीकृतम् अस्ति एव. तर्हि समाप्ति नाम का इत्युक्ते चर्मवर्णध्वंसः. तर्हि शरीरस्था या क्रिया, तस्याः क्रियायाः चर्मवर्णध्वंसात्मकस्य तत्र समाप्तेः समाप्तिं प्रति वर्णध्वंसात्मकं समाप्तिं प्रति कार्यकारणभावः साधनीयः.
तत्रैव प्रश्नः महोदय, क्षम्यतां. तत्र यदा मयम् अहं हस्तद्वयेन तत्र संयोगं कृत्वा नमस्कृत्य क्रियात्मकरूपमङ्गलं करोमि चेत् तत्र चरमवर्णस्य किमपि कार्यं नास्ति, तत्र वर्णस्य कार्यमेव नास्ति किल, केवलं हस्तसंयोगः एव मया कृतः.
हा अस्तु, इदानीं समाप्ति पुनः स्मरणरूपेण वदामः. सत्यमेव उक्तं भवता, मङ्गलम् अत्र शब्दात्मकं नास्ति, भवतः तादृशः प्रश्नः आसीत्, तत् सत्यमेव. परन्तु चरमवर्णः यः अस्माभिः चर्चितः, सः वर्णः शब्दात्मकमङ्गलघटितवर्णस्य चर्चा अत्र नास्ति, ग्रन्थस्य अन्तिमवर्णस्य चर्चा, मङ्गलघटितवर्णस्य चर्चा नास्ति खलु. समाप्ति नाम किम् इत्युक्ते ग्रन्थस्य चरमवर्णध्वंस एव समाप्ति.
ओ हो, अस्तु अस्तु, इदानीम् अवगतम्.
समीचीनम्. अस्तु, इदानीं पुनः अहं तत्र मम मित्रं तत्र पृष्टवान्, अत्र सर्वत्रापि तत्र मङ्गलं क्रियात्मकम् इत्यादिकं वर्तते, परन्तु किञ्चिदिव सन्देहः अस्ति. प्रथमं तु तत्र मनसि ज्ञानं भवेत् एव, तदनन्तरमेव शरीरचेष्टा अपि भवति, तदनन्तरमेव तत्र शब्दात्मकं मङ्गलमपि भवति, विना ज्ञानं नैव भवति खलु इति मम प्रश्नः आसीत्. तेन उक्तं सत्यमेव, ज्ञानात्मकस्य मङ्गलस्य एव प्राधान्यं स्वीक्रियते, प्राधान्यं तु ज्ञानात्मकस्य मङ्गलस्य एव स्वीक्रियते. तत्र क्रियात्मकं मङ्गलं केवलं तत्र ज्ञानस्य अभिव्यञ्जकम् एव, तद् अभिव्यञ्जकमेव. पूर्वं ज्ञानमासीत्, इदानीं तत्र ज्ञानस्य अभिव्यञ्जनं कृतं, प्रकटीकृतम्. अतः तत्र गौणरूपेण चिन्तनं करणीयं, प्राधान्येन ज्ञानात्मकस्य एव मङ्गलस्य चिन्तनं भवेत् इति तेन उक्तम्. अस्तु, इदानीं तत्र मङ्गलस्य विषये अस्माभिः किञ्चिदिव चर्चा कृता, तत्र विस्तरेण चर्चिता इति वक्तुं तु न शक्यते, विस्तरेण चर्चितं तत्र मङ्गलस्य विषये विस्तरेण अस्माभिः चर्चा कृता इति वक्तुं न शक्यते. कुतः इति चेत् तत्र मणिग्रन्थे यदि पश्यन्ति चेत् तत्र गङ्गेशाचार्यस्य ग्रन्थः तत्त्वचिन्तामणि, संक्षिप्तरूपेण मणिग्रन्थः इति उच्यते, मणिग्रन्थे तत्र दृश्यते चेत् अतिविस्तरेण मङ्गलवादस्य चर्चा कृता. तत्र ऐदं प्राथम्यं, ततः आरभ्य एव तत्र मङ्गलवाद इति उच्यते परम्परायाः तत्र प्रभवः, तत्र आरम्भः मणिग्रन्थादारभ्य एव जातः. परन्तु तत्र सम्यक् न अस्माभिः ज्ञायते, कुतः इति चेत् तत्र शास्त्रान्तरस्थाः विषयाः अपि तत्र बहवः सन्ति, नाम तत्र मीमांसाशास्त्रस्य बहवः विषयाः तत्र मङ्गलवादे तैः तत्र चर्चिताः, तथा सरलरूपेण अस्माकं ज्ञानं न जायते। पुनः तत्र भारतीयदर्शनशास्त्रे यदि वयं प्रवेष्टुमिच्छामः प्रविवेक्षवः वयं, तर्हि अस्माभिः मीमांसाशास्त्रस्यापि अध्ययनं करणीयं। तत्र त्रैविध्यं वर्तते, पदवाक्यप्रमाणम् इति उच्यते। अस्माभिः तत्र व्याकरणं पठ्यते, वयं पठामः तत्र पदशास्त्रं, प्रमाणशास्त्रम्, इदानीं न्यायशास्त्रस्य अध्ययनम् अत्र बहुकालेभ्यः चलति, तदपि सम्यकेव, अस्माभिः किञ्चिदिव ज्ञानं जातं। परन्तु अस्माभिः यदि अधीतं चेत् सम्यक्, परन्तु न अधीतं चेत् वाक्यशास्त्रं नाम मीमांसाशास्त्रं, यावत्पर्यन्तं मीमांसाशास्त्रस्य अध्ययनं क्रियते तावत्पर्यन्तं वाक्यार्थज्ञानं सम्यक् कर्तुं नैव शक्यते। अतः त्रयाणामपि अध्ययनम् आवश्यकम्, एतावदेव वदामि। अस्तु, अस्माभिः इदानीं तत्र पुनः अग्रे करामः। तत्र यत्पर्यन्तं पठितमासीत् षष्ठीसूते खलु, सुखबोध एवम् अस्तु, एतावत्पर्यन्तं नाम तत्र सङ्ग्रहः इत्युक्ते संक्षेपेण स्वरूपकथनम् इति उच्यते, संक्षेपेण स्वरूपकथनम् इति दृश्यते खलु तत्र ग्रन्थे, प्रश्नस्य वा जलताडनादेरपि निषिद्धत्वात् दर्श्यन्ते एवमेवं, तत्र संक्षेपेण स्वरूपकथनं, तत्र सङ्ग्रह इत्यपि पारिभाषिकं पदं मया इदानीं न स्मर्यते, अत्र संक्षेपेण स्वरूपकथनम् इति उक्तं, परन्तु तत्र महान् ग्रन्थः विद्यते गणरत्नमहोदधिः इति, तत्र सम्यक् सङ्ग्रहः इति पदस्य को वा अर्थः इत्यस्य विवरणं कृतं, मया इदानीं न स्मर्यते, परन्तु किञ्चिदिव दिग्दर्शनरूपेण तावदेव वदामि। अस्तु, इदानीम् अग्रे करामः। कस्मै प्रयोजनाय इत्यताह वदति, नाम सुखबोधाय इति, कस्मै प्रयोजनाय नाम तत्र ग्रन्थस्य प्रयोजनम्। इदानीम् अस्माभिः पूर्वमेव दृष्टम् अनुबन्धचतुष्टयस्य कर्ता यदा जाता, विषय अधिकारिसम्बन्धप्रयोजनम् इति अस्माभिः पूर्वमेव दृष्टम्, इदानीं तत्र ग्रन्थानुसारेण किञ्चित् पश्यामः। कस्मै प्रयोजनाय इत्यतः सुखबोधाय, पुनः सुखबोधाय इत्यस्य को वा अर्थः इत्युक्ते अत्र तृतीया तत्पुरुषघटितविग्रहवाक्यं करोति, सुखेन बोधः सुखबोधः, षष्ठी तत्पुरुषघटित तत्र न करोति, कुतः इत्युक्ते तथा करणेन तत्र अर्थव्यत्यासः जायते, सुखस्य बोधः इति भवति अर्थः। प्रश्नः अस्ति वा? अस्तु, अग्रेसरामः। सुखेन नाम अनायासेन, अत्र सुख इति पदस्य, सुखम् इति पद तत्र पदस्य को वा अर्थः इत्युक्ते आयास नाम प्रयत्नः, अनायासः नाम बहु आयासेन न, अनायासेन एव, सरलरूपेण एव, बोधः पदार्थज्ञानं, बोधः नाम पदार्थज्ञानं, तस्मा इत्यर्थः, तस्मै प्रयोजनाय इत्यर्थः, तर्हि सुखेन बोधः। अस्तु, इदानीं तत्र पुनः पूर्वपक्षि ननु इत्यारभ्य पूर्वपक्षिणः आक्षेप, ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थम् अपूर्वग्रन्थः क्रियत इत्यतः बालानाम् इति, तेषाम् अतिविस्तृतत्वात् बालानां ततः सुखेन बोधो न भवति इत्यर्थम् इत्यर्थः। अस्तु, किं वदति इत्युक्ते तत्र पूर्वपक्षिणः आक्षेपः, सत्सु बहुषु तर्कग्रन्थेषु किमर्थम् अपूर्वग्रन्थः नूतनग्रन्थः क्रियते इत्यतः बालानां सुखबोधाय, नाम तत्र तेषां नाम बहूनां ग्रन्थानाम्, अत्र उक्तमासीत् खलु बहुषु ग्रन्थेषु सत्सु, तेषां ग्रन्थानाम् अतिविस्तृतत्वात्, तत्र विकीर्णाः सिद्धान्ताः ग्रन्थाः तत्र बृहदाकारकाः, बहवः सिद्धान्ताः क्लिष्टशैल्या निरूपिताः इत्यादिकम्, अतः अतिविस्तृतत्वात् बालानां ततः तेभ्यः ग्रन्थेभ्यः, ततः नाम तेभ्यः ग्रन्थेभ्यः सुखेन बोधो न भवति इत्यर्थम् इत्यर्थः अत्र इत्यर्थम् इत्यर्थः अर्थ इति पदं द्विवारम् अत्र अस्ति तर्हि अत्र द्वयोः अर्थपदयोः अर्थभेदः अस्ति वा नास्ति वा इत्यर्थम् इत्यर्थः इति उक्तं तर्हि प्रथमं यत् अर्थपदं तस्य अर्थः अस्ति प्रयोजनं द्वितीयपदस्य अर्थः एव अर्थः भवति इति प्रयोजनम् इति प्रयोजनाय इत्यर्थः एवं तस्य विवरणं करणीयं भवति इत्यर्थम् इत्यर्थः अस्तु इदानीं भवति अत्र बालानाम् इति उक्तं खलु तर्हि बालपदस्य इदानीं विवरणं करोतु किं वदति इत्युक्ते ग्रहणधारणपटुर्बालः न तु स्तनन्धयः नाम बालनाम किं बालः इति कथनेन तस्य को वा अर्थः अस्मिन् ग्रन्थे इत्युक्ते अत्र बालपदं पारिभाषिकं पदं न तु तत्र स्वाभाविकं यत् अस्माभिः सामान्यव्यवहारे बाल इति कथनेन यः अर्थस्य बोधः अस्माकं जायते तादृश अर्थः अत्र न विवक्षितः नाम सामान्यव्यवहारे बालः इति कथनेन स्तनन्धयः स्तन्यं पानं यः करोति शिशु लघु शिशुः तत्र धेट् पाने इति धातु स्तनन्धयः इति स्तनपानं करोति लघु शिशुः इति अर्थः तादृश अर्थः अत्र न विवक्षितः अत्र पारिभाषिकं पतं कः पारिभाषिक अर्थः अत्र इत्युक्ते ग्रहणधारणपटुर्बालः इति नाम बालनाम यः ग्रहणे पटुः अस्ति धारणे च पटुः अस्ति सैव बालः ग्रहणं नाम अवगमनं धारणं नाम स्मरणं स्मरति न केवलम् अवगमनम् अपि तु स्मरति अपि तर्हि तादृशबालः अत्र किञ्चिदिव चिन्तनं करणीयम् अत्र किं वदति अत्र न्यायबोधिनीं पश्यामः चेत् अस्माभिः न्यायबोधिन्याः अध्ययनं न क्रियते परन्तु अत्र किञ्चिदिव पश्यामः द्वितीये पुटे पश्यतु ग्रन्थस्य द्वितीये पुटे तत्र अस्ति खलु चिकीर्षितस्य ग्रन्थस्य इति दृश्यते खलु तत्र न्यायबोधिनी नास्ति तत्र पदकृत्यमस्ति पदकृत्यकारः किं वदति इत्युक्ते तदनन्तरमेव न्यायबोधिनी समनन्तरमेव तत्र द्वितीयपङ्क्तिं पश्यतु पदकृत्यमध्ये पदकृत्यस्य परिच्छेदे द्वितीयां तत्र पङ्क्तिं पश्यतु किं वदति इत्युक्ते बाल इति अत्र अधीतव्याकरणकाव्यकोश अनधीतन्यायशास्त्रो बालः इति वदति पदकृत्यकारः किं वदति इत्युक्ते बालनाम अधीतव्याकरणकाव्यकोशः अत्र बालः तत् अधीतं स्यात् व्याकरणं कोशः अपि अधीतः स्यात् तदा एव बालः अनधीतन्यायशास्त्रे यदि न्यायशास्त्रे एव बालः परन्तु व्याकरणशास्त्रे तस्य व्युत्पत्तिः जाता ज्ञानं व्युत्पत्तिनाम ज्ञानं जातं तत् अधीतमेव तेन कोशोऽपि अधीतः काव्यकोश तत्र अधीतः केवलम् अनधीतन्यायशास्त्रो बालः न्यायशास्त्रे एव बालः न्यायशास्त्रं न अधीतम् इति कृत्वा तथा वदति तु अस्माकं कृते तु तत्र दीपिकाकारः अन्नं भट्टः एव वरं कुतः इति चेत् तत्र अधीतकाव्यकोशव्याकरणमित्यादिकं न वदति ग्रहणधारणपटुत्वम् अस्ति चेत् तत्र पर्याप्तम् अस्ति इति तत्र दीपिकाकारस्य आशयः अस्तु भवतु नाम पुनः अनन्तरं किं कृत्वा क्रियत नाम क्रियते तर्कसङ्ग्रहः इति उक्तमासीत् तत्र मङ्गलश्लोके किं कृत्वा क्रियत इत्यतः निधाय तत्र निधाय रीति विश्वेषं निधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः इति उक्तमासीत् तर्हि किं कृत्वा क्रियते इत्युक्ते तर्हि विश्वेषं नाम जगन्यन्तारं शिवं रीति निधाय इत्यस्य को वा अर्थः इत्युक्ते नितरां स्थापयित्वा तस्य को वा अर्थः इत्युक्ते सर्वदा तद् ध्यानपरोभूत तद् नाम तत्र शिवध्यानपरोभूत्वा इत्यर्थः निधाय इत्यस्य पुनः गुरुबन्धनम् इति उक्तं गुरु कीदृश तत्र कीदृशः गुरु इत्युक्ते विद्यागुरु इति वदति दीक्षागुरु विद्यागुरु बहवः भवन्ति अत्र विद्यागुरु इति वदति गुरुणां विद्यागुरुणां बन्धनं नमस्कारं विधाय धृत्वा इति अर्थः अस्तु इदानीम् एतत् सर्वं स्पष्टमस्ति वा अग्रेसरामः वा किञ्चिदिव पुनः विवरणं तत्र पर्यायेन पठनम् आवश्यकं वा
बालः इति किञ्चित् ज्ञातुम् इच्छामि
अस्तु भवती एकवारं पुनः वदामि अत्र पदकृत्यकारस्य मते बालपदस्य अर्थः भिन्नः दीपिकाकारस्य मते बालपदस्य भिन्नः अर्थः दीपिकाकारः किं वदति इत्युक्ते कः बालः इत्युक्ते ग्रहणधारणपटु बालः ग्रहणधारणपटु ग्रहणश्च ग्रहणं च धारणं च इति द्वन्द्वः भवति तयोः पटु बालः तर्हि अत्र किं भवति तत्र पटु इति पदं ग्रहणे अपि अन्वेति धारणे अपि अन्वेति तत्र किम् आसीत् तत्र नियमः अस्ति खलु कश्चन द्वन्द्वान्ते द्वन्द्वादौ च श्रूयमाणं पदं प्रत्येकम् अपि सम्बध्यते इति कश्चन नियमः अस्ति तर्हि द्वन्द्वान्ते अस्ति पटुः इति पदम् इति कृत्वा पटुपदं धारणे अपि अन्वेति ग्रहणे अपि अन्वेति प्रत्येकम् अन्वेति तर्हि ग्रहणपटुः धारणपटुः ग्रहणपटुः अपि स्यात् बालः धारणपटुः अपि स्यात् बालः ग्रहणं नाम अवगमनं ग्रहणं नाम तत्र हस्तेन किमपि ग्रहणं न तत्र मनसा ग्रहणम् अवगमनं ग्रहणं धारणं नाम यत् गृहीतं तस्य तत्र बहुकालपर्यन्तम् आम् एवं स्मरणं धारणम् इति तत् कर्तुं शक्नोति चेत् बालः न तु स्तनन्धयः केवलं तत्र स्तन्यपानं करोति तादृशबालः न तत्र तत्र नाम तत्र विंशतिवर्षीयः अस्ति चेदपि ग्रहणधारणपटु अस्ति चेत् बालः एव अत्र पर्याप्तम् अत्र इदानीं ततोपि अधिकं चेत् सम्यक् एव परन्तु तत्र बालत्वं तु तस्य अस्ति एव इति पारिभाषिकबालत्वं तत्र अस्ति एव इति वक्तुं शक्यते स्पष्टमस्ति वा
धन्यवादः
अस्तु अस्तु इदानीं तत्र किञ्चिदिव एकवारं सावित्री भगिनी पठति वा तत्र सुखेन बोध इति आरभ्य एकवारं तत्र शीघ्रं पठति चेत् अवसरामः पुनः
कुतः महोदय
तत्र
सुखेन सुखेन अनायासेन बोधः पदार्थज्ञानं तस्मात् इत्यर्थः ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थं पूर्वग्रन्थः क्रियत इत्यत आह बालानाम् इति तेषाम् विस्तृतत्वात् बालानां ततः सुखेन बोधो न भवति इत्यर्थमित्यर्थः ग्रहणधारणपटुः बालः न तु स्तनन्धयः किं कृत्वा क्रियत इत्यत आह निधाय इति विश्वेशं जगन्नियन्तारं शिवं हृदि निधाय नितरां स्थापयित्वा सर्वदा तद्ध्यानपरो भूत्वेत्यर्थः गुरूणां विद्यागुरूणां वन्दनं नमस्कारं विधाय कृत्वेत्यर्थः
अत्र किञ्चित् प्रतिपादनं करोति वा बालपदस्य
सुखबोध इति सुखेन अनायासेन बालानां बोधः जायते इति विकीर्णेषु ग्रन्थेषु बोधनं सुखेन न जायते अत्र तर्कसङ्ग्रहे एकस्मिन् स्थाने बालानां सुखबोध बोधः भवति इत्यर्थः. ननु बहुषु तर्कग्रन्थेषु सत्स् किमर्थम् इति बालानाम् इति पुनः तदेव तेषाम् अतिविस्तृततत्त्वबालानां ततः सुखेन बोधो न भवति इत्यर्थः. इत्युक्ते पुनः तदेव बहुषु ग्रन्थेषु पठित्वा तेषाम् अवगमनं सुखेन न जायते. अत्र एकस्थाने एव पठित्वा सुलभतया अवगन्तुं शक्यते इति अर्थः. तत्र ग्रहणधारणपटुः बालः न तु स्तनन्दयः. इत्युक्ते लघुः, अतीव लघुः बालः न, परन्तु यस्य ग्रहणशक्तिः अस्ति अपि च यत् ग्रहीतं तस्य धारणशक्तिः अपि अस्ति. इत्युक्ते अवगमनशक्तिः अपि अस्ति, स्मरणशक्तिः अपि अस्ति, सः एव बालः इति अत्र लिखितमस्ति. किं कृत्वा क्रियत इत्यतः निधायेति. विश्वेशम् इति शिवं मनसि निधाय अथवा हृदि निधाय नितरां तस्य ध्यानं कृत्वा क्रियते इति अर्थः.
सत्यमेव, सत्यं.
गुरुणां, विद्यागुरूणां वन्दनं नमस्कारं विधाय कृत्वा इति.
सत्यं, सत्यमेव. धन्यवादः. अस्तु, तर्हि अग्रे सरामः. इदानीं तत्र मङ्गललादः समाप्तः अस्मिन् ग्रन्थे. इदानीं साक्षात् विषयप्रवेशः. तत्र प्रथमं एव प्रथमं वाक्यं, द्रव्यगुणकर्मसामान्यविशेषसमवायाभावः भावाः सप्तपदार्थाः. अस्तु, अत्र तर्कसङ्ग्रहमूलपङ्क्तिः. तर्हि अत्र किञ्चिदिव चिन्तनं करणीयम्. अत्र अत्र अस्मिन् वाक्ये किमस्ति इत्युक्ते, प्रथमं तावत् उद्देश्यविधेयभावः वर्तते. तर्हि उद्देश्यविधेयभावः वर्तते चेत् कः उद्देश्यः, कः विधेयः? अत्र कोऽपि वक्तुमिच्छति वा? अस्तु, अत्र उद्देश्यः नाम पदार्थम् उद्दिश्य सप्तत्वं विधीयते. तर्हि द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः विधेयाः. तर्हि अत्र किञ्चिदिव व्यत्यासः खलु, कुदाचित् तत्र क्रमपरिवर्तनं किमर्थं? सर्वत्रापि सः सामान्यनियमः इत्युक्ते प्रथमम् उद्देश्यस्य एव तत्र विन्यासः भवेत्, तदनन्तरमेव विधेयस्य विन्यासः भवेत् इति सार्वत्रिकः नियमः. असति बाधके, कदाचित् तत्र बाधकोऽपि भवति. कुदाचित् चेत् तत्र अस्माभिः दृष्टमेव, चर्चितमपि वर्तते, अष्टाध्यायीग्रन्थे तत्र पाणिनिमहर्षिः किं करोति, वृद्धिरादेच् इति वदति. तत्रापि क्रमस्य व्यत्यासः कृतः. तत्र आद् ऐच् तत्र आद् ऐच् इति उद्दिश्य वृद्धिः विधीयते, वृद्धिसंज्ञा विधीयते. तर्हि किमर्थं तत्र व्यत्यासः कृतः इत्युक्ते, तत्र तु तत्र मङ्गलं भवति. वृद्धिः इति पदेन मङ्गलं सूचितम् इति कृत्वा प्रथमं मङ्गलस्य स्थापनम् आवश्यकम् इति कृत्वा वृद्धिपदस्य तत्र उद्देश्यविधेयभाव तत्र भावः कृतः, नाम उपन्यासः भिन्नरूपेण कृतः. परन्तु अत्र किमर्थं प्रथमं तत्र विधेयस्य उपन्यासः, तदनन्तरम् उद्देश्यस्य उपन्यासः इति प्रश्नः उदेति कदाचित्. तर्हि उदेति चेत् तत्र समाधानं किम् इत्युक्ते, अत्र ग्रन्थकारः महान् विद्वांसः अन्नं भट्टः. सः न जानाति इति तु वक्तुं शक्यते वा? न शक्यते. सः सर्वमपि सम्यक् जानाति. तर्हि अत्र तर्हि किमर्थं विपरीतक्रमेण तत्र उपन्यासः कृतः पदानाम् इति प्रश्नः उदिते सति. तत्र समाधानं किम् इत्युक्ते, अत्र सहजशैली, तत्र व्यावहारिकी शैली अस्माकं यादृशी भवति, तादृशी शैलीम् अवलम्ब्य तेन अत्र पदानाम् उपन्यासः कृतः. अभिप्रायस्तु तत्र तत्र विपरीतरूपेण उद्देश्यपदार्थः एव विधेयः, तत्र सप्तपदार्थाः एव इति मनसि निधाय एवं चिन्तनं करणीयम् इति समाधानं. सहजा शैली एव तद् अवलम्बिता तेन बालानां कृते इति कृत्वा अपि एवं सहजा शैली तत्र अवलम्बिता इत्यपि किञ्चिदिव वक्तुं शक्यते. अस्तु, तर्हि अत्र आम्.
अत्र किञ्चित् प्रतिपादयति वा? मम अवगमने उद्देशविधेयभावः इत्युक्ते कमपि उद्दिश्य तस्मिन् किञ्चित् विधीयते.
नाम
एषः मम मित्रम् इत्युक्ते एतम् उद्दिश्य मित्रत्वम् इति आरोपयति इति.
सत्यं सत्यं.
मम चिन्तनमासीत् एतान् पदार्थान् उद्दिश्य एतान् वस्तूनि इति चिन्तयतु, तानि उद्दिश्य तस्मिन् पदार्थत्वं विधीयते इति न
वक्तुम् अत्र किञ्चित् किमर्थम् इत्युक्ते तत्र पदार्थ इति सामान्यज्ञानं प्रथमं भवति चेदेव विशेष अत्र द्रव्यगुणकर्मविषये तत्र विशेषनिर्देश अत्र विभागपरवाक्यं यदस्ति तत्तु विशेष अर्थप्रतिपादनपरं वाक्यं. तर्हि विशेषः विधीयते सामान्यम् उद्दिश्य इति एवं चिन्तनं भगिनी अत्र. पदार्थ इत्युक्ते सामान्यरूपेण चिन्तनं. तर्हि इदानीं तत्र समनन्तरमेव किञ्चिदिव पश्यामः. इदानीं तस्य विषये एव तत्र दीपिकाग्रन्थे तत् किञ्चित् दत्तमस्ति. तत्र पश्यामः, तत्र प्रथमं सामान्यज्ञानं भवति, तदनन्तरमेव विशेषजिज्ञासा उदेति. विशेषजिज्ञासा उदिते सति पदार्थस्य ज्ञानानन्तरं, पदार्थ नाम किम् इत्यस्य ज्ञानानन्तरमेव तत्र ज्ञातस्य सामान्यविषयकपदार्थस्य विषये पुनः विभागवाक्येन तत्र सप्तत्वं विधीयते. एवं सामान्यरूपेण यः पदार्थः ज्ञातः तत्र तस्य पदार्थस्य सप्तत्वम् अस्ति इति विधीयते. तत् एवं चिन्तनं करोति. अस्तु, पुनः अत्र किञ्चिदिव क्लेशः खलु. सप्तपदार्थाः उक्तम् अत्र, वदति द्रव्यं, गुणः, कर्म, सामान्यं, विशेषसमवायः. तर्हि द्रव्यं, कति द्रव्याणि सन्ति अस्मिन् संसारे, अस्मिन् जगति कति गुणाः सन्ति? द्रव्याणि अनन्तानि, असङ्ख्यकानि. इदानीं पश्यामः घटाः, कति घटाः सन्ति? बहवः घटाः सन्ति. अस्तु, घटानां परिगणनं कर्तुं शक्यते चेदपि तत्र बालुकानां, सिकतानां कथं वा परिगणनं? अनन्ताः सिकताः. तर्हि अत्र किञ्चिदिव असङ्गतः वाक्यमसङ्गतम् इति मनसि कदाचित् प्रश्नः, सन्देहः जायेत. तर्हि अत्र किं वदन्ति नैयायिकाः इत्युक्ते, अत्र भावप्रधानः निर्देशः अस्ति इति वदन्ति. भावप्रधानः निर्देशः नाम द्रव्यपदस्य द्रव्य अर्थः न, द्रव्यपदस्य द्रव्यस्य भावः इति अर्थः. तर्हि द्रव्यस्य भावः किम् अस्ति?
द्रव्यत्वं.
द्रव्यस्य भावः द्रव्यत्वं, सत्यमेव. अस्तु, तर्हि इदानीं किञ्चिदिव भावपदस्य को वा अर्थः किञ्चिदिव पश्यामः. भावपदस्य व्याकरणशास्त्रे कः अर्थः? पाणिनिमहर्षिणा सूत्रं विरचितं, तस्य भावस्त्वतलु इति सूत्रं तत्र उपन्यस्तम् अष्टाध्यायी ग्रन्थे. परन्तु भावशब्दस्य निर्वचनं न कृतं, तत्र भाव नाम किम् इति न उक्तं तैः. तर्हि तत्र वृत्तिग्रन्थेषु तत्र सर्वत्र तत् व्याख्यानम् अस्ति. तत्र सिद्धान्तकौमुद्यां किम् अस्ति इत्युक्ते, प्रकृतिजन्यबोधे प्रकारो भावः इति उक्तम्. इदानीं यदि न्यायशास्त्रस्य अध्ययनं न कृतं चेत्, पूर्वमेव किञ्चिदिव न्यायशास्त्रस्य ज्ञानं नास्ति चेत्, तत्र दीक्षितैः या वृत्तिः तत्र उपन्यस्ता, तस्याः वृत्तेः तत्र अवगमनं दुःसकमेव, कर्तुमेव न शक्यते. किमित्युक्ते तत्र वदति न्यायशास्त्रघटितं लक्षणं करोति इदानीं प्रकृतिजन्यबोधे प्रकारो भावः. इदानीं को वा अर्थः? प्रकारत्वं बोधः, ज्ञानं, ज्ञानस्य विषयाः, प्रकारः नाम किं, प्रकारताक्षविषयता कुत्र वर्तते इत्यादिकं यदि मनसि नास्ति चेत् तस्य एतस्य वाक्यस्य सम्यक् अवगमनं न जायते. तर्हि द्रव्यत्वम् इत्यत्र त्व इति प्रत्ययस्य प्रकृतिभूतः शब्दः कः? द्रव्यत्वम् इत्यत्र त्वप्रत्ययस्य प्रकृतिभूतः पदार्थः कः? पदं किं?
पदं
द्रव्यम्. अस्तु, तर्हि द्रव्य प्रकृतिजन्यबोधे नाम द्रव्यजन्यबोधे नाम द्रव्यपदार्थकथन वाचनजन्यबोधः बोधे प्रकारः कः द्रव्यमिति वदामः चेत् अस्माकं ज्ञानं कीदृशं भवति तत्र विषयताः तत्र काः इत्युक्ते द्रव्यत्वमपि तस्मिन् ज्ञाने भासते द्रव्यत्वस्य अधिकरणं यत् द्रव्यमुद्दिश्य अस्माभिः तत् कथितं तदपि तस्मिन् भासते द्वयोः समवायसम्बन्धोऽपि तत्र भासते तर्हि द्रव्यम् इति कथनात् तत्र यत् ज्ञानं जायते तस्मिन् ज्ञाने प्रकारः द्रव्यत्वं प्रकारीभूतो धर्मः द्रव्यत्वं तदेव भावः इति दीक्षिताः वदन्ति प्रकृतिजन्यबोधे प्रकारो भावः इति अतिसंक्षिप्तरूपेण कथितं परन्तु न्यायशास्त्रस्य ज्ञानं नास्ति चेत् तत्र अवगमनं नैव कर्तुं शक्यम् अस्तु अत्र किम् अत्र तु द्रव्यत्वं न उक्तम् अत्र अर्थः कः इत्युक्ते द्रव्यमिति पदस्य भावप्रधाननिर्देशः इत्युक्ते स्वार्थप्रकारीभूतभावः धर्मः इति अत्र चिन्तनं करणीयं स्वार्थप्रकारीभूतधर्मः भावः नाम द्रव्यत्वम् इति पदस्य यः अर्थः स्वस्य यः अर्थः तस्य अर्थः पुनः तदेव द्रव्यत्वमिति कथनेन किं तत्र ज्ञानस्य स्वरूपं किम् आयाति तदेव यत्पूर्वम् अस्माभिः दृष्टं तदेव आयाति तत्र प्रकारीभूतः धर्मः कः इत्युक्ते पुनः द्रव्यत्वं भावप्रधाननिर्देश इति कथनेन द्रव्यत्वमेव आयाति अस्तु तर्हि अत्र सप्तपदार्थः इत्युक्ते अभिप्रायः ग्रन्थकारस्य कः इत्युक्ते द्रव्यत्वं गुणत्वं कर्मत्वं सामान्यत्वं परन्तु सामान्यत्वं तत्र धर्मः तत्र जातिरूपेण नास्ति विशेषत्वम् एवमेवं चिन्तनं करोति नाम द्रव्यत्वावच्छिन्नं सकलद्रव्यम् इति अर्थः तादृशः अर्थः तत्र तत्र ग्रन्थेषु दृश्यते कदाचित् तत्र भ्रमः जायते इति कृत्वा अहं यत्किमपि मम मनसि आयाति तत् किञ्चिदिव तस्य विवरणं करोमि अस्तु इदानीं दीपिकाग्रन्थं पश्यामः सप्तमे पुटे दीपिका दृश्यते खलु पदार्थान् विभजते द्रव्येति इति दृश्यते खलु द्रव्येति इदानीं द्रव्येति इति पदं यत् स्वीकृतं द्रव्येति तद् द्रव्यपदं तत्र ग्रन्थभागभूतं पदं द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः तर्हि मूलग्रन्थस्थं ग्रन्थस्य एकदेशस्य अत्र उल्लेखः कृतः द्रव्येति तदेव प्रतीकधारणम् इति उच्यते शास्त्रेषु नाम तत्र व्यासिख्यासितग्रन्थस्य एकभागः भागस्य उल्लेखः प्रतीकधारणमिति उच्यते तत्र प्रतीकधारणपुरस्सरम् इदानीं तत्र तत्र टीकायाः आरम्भः अस्य वाक्य टीका पदार्थान् विभजते इदानीं विभागवाक्यं वाक्यमेतत् एतत् अस्ति विभागलक्षणवाक्यं पदार्थस्य लक्षणवाक्यं नास्ति एव द्रव्यगुणकर्मसामान्यविशेषसमवायभावाः सप्तपदार्थः इति कथनेन पदार्थस्य लक्षणं न जायते पदार्थस्य विभागः कृतः पदार्थान् विभजते इति वदति द्रव्येति इदानीं किं वदति इत्युक्ते प्रश्नमस्ति वा न अस्तु पदस्यार्थः पदार्थः इति व्युत्पत्त्या अविधेयत्वं पदार्थसामान्यलक्षणम् इति लभ्यते तर्हि अस्माकं मनसि सन्देहः जायेत अत्र ग्रन्थकारः अनर्गलं प्रलापं किमर्थं करोति अत्र केन तत्र पृष्टः तत्र नाम पदस्यार्थः पदार्थः किमर्थं वदति असङ्गतम् अत्र विभागपरं वाक्यम् इति पूर्वमेव उक्तं तर्हि विभागस्य विषये वक्तव्यं स्यात् किमर्थम् इदानीं पदस्यार्थः पदार्थः इति असङ्गतं किमपि वदति ग्रन्थकारः विभागः कीदृशः इत्यस्मिन् विषये वक्तव्यं खलु द्रव्यगुणकर्म इत्यादिकं कृत्वा विभागः कृतः इति वक्तव्यम् इदानीं तत् विभागस्य विषये अनुक्ता पदार्थस्य विषये इदानीं वदति वाक्यमस्ति विभागपरं परन्तु टीकायाः आरम्भः पदार्थपरं पदार्थपरः आरम्भः किमर्थम् इत्युक्ते तत्र सर्वदैव किं भवति इत्युक्ते सामान्यपूर्वको विशेषः इति नियमः सार्वत्रिकः नियमः नाम सामान्यलक्षणज्ञानाभावे विशेषजिज्ञासा नैव उदेति. प्रथमं सामान्यज्ञानम् आवश्यकम्. तर्हि विशेषजिज्ञासा नास्ति चेत् विशेषविभागोऽपि अनुपपन्नः खलु. विशेषजिज्ञासा अस्ति, पदार्थाः कतिविधाः सन्ति, एतादृशी विशेषजिज्ञासा नास्ति चेत् तत्र विभागः न करणीयः, अनुपपन्नः सङ्गतः. अत्र यथा उदाहरणरूपेण तत्र पृथिव्याः विषये गन्धवती पृथिवी इति प्रथमम् उक्तं, तर्हि सामान्यज्ञानं पृथिव्याः जातं गन्धवती पृथिवी इत्यनेन पृथिव्याः सामान्यलक्षणं कृतं. तदनन्तरमेव जिज्ञासा जायते, भोः अस्तु पृथिव्याः सामान्यज्ञानं प्राप्तम्, इदानीं विशेषजिज्ञासा कतिविधाः सन्ति, तत्र विभागः अस्ति वा न वा इति विशेषजिज्ञासा जायते. परन्तु अत्र ग्रन्थे द्रव्यगुणकर्मसामान्यविशेषसमवायभावाः सत्यपदार्थाः इति साक्षात् विभागमेव उक्तं, तत्र सामान्यलक्षणं पदार्थस्य न कृतम् इति पूर्वपक्षी चिन्तयति इति कृत्वा ग्रन्थकारः पूर्वमेव वदति, भोः अत्र पदार्थ इति सामान्यलक्षणं न आवश्यकम्. किमर्थं न आवश्यकम् इत्युक्ते विशेषरूपेण पारिभाषिकरूपेण पदार्थस्य लक्षणं न आवश्यकं. कुतः इति चेत् तत्र पदस्य अर्थः पदार्थः इति यस्य व्याकरणज्ञानं वर्तते सः तस्य व्याकरणज्ञानस्य प्रयोगं कृत्वा तस्य कः अर्थः इति ज्ञातुं शक्नोति. व्युत्पत्तिलभ्यः अर्थः पदस्य लक्षणं व्युत्पत्तिलभ्यं व्याकरणज्ञानेनैव जायते. न्यायशास्त्रे विशेषरूपेण परिभाषादिकं तस्य न आवश्यकं. व्युत्पत्तिलभ्यः अर्थः तदेव अत्र वदति इति पदस्य अर्थः अत्र विग्रहवाक्यमस्ति. पदस्य अर्थः षष्टितत्पुरुषसमासः, पदस्य अर्थः पदार्थः इति अत्र विग्रहवाक्यं व्युत्पत्ति, एतादृशी व्युत्पत्तिः अस्ति. व्युत्पत्तिलभ्यः अर्थः अस्ति एव, विशेषरूपेण तत्र पारिभाषिकरूपेण कथनम् अनावश्यकम्. तर्हि इति व्युत्पत्त्या किं भवति इत्युक्ते अविधेयत्वं पदार्थसाम अविधेयत्वं नाम वाच्यत्वम् अविधेयत्वं वाच्यत्वं यत् तस्य यत् अविधीयते यस्य अर्थकथनं कर्तुं शक्यते यस्य कथनं कर्तुं शक्यते. अविधेयत्वं नाम पदगम्यप्रतीतिविषयत्वं पदगम्यप्रतीतिविषयत्वमेव अविधेयत्वं नाम पदेन जन्याया प्रतीतिः तस्याः विषयत्वमेव अविधेयत्वं पदगम्यप्रतीतिविषयत्वम् अविधेयत्वं. पदार्थस्य सामान्यलक्षणम् इति लभ्यते एव, व्युत्पत्त्या एव लभ्यते. अतः विशेषरूपेण अत्र पारिभाषिकरूपेण कथनम् अनावश्यकम् इति कृत्वा मूलग्रन्थे प्रथमं पदार्थस्य निरूपणं न कृतं, साक्षात् पदार्थस्य विभागरूपेण विभागवाक्यघटितपदार्थपदस्य विग्रहवाक्यात् एव अविधेयत्व अर्थलाभः जायते इति कृत्वा सामान्यज्ञानं तत्र अस्ति एव. तर्हि सामान्यपूर्वकविशेषः इति नियमस्य उल्लङ्घनः न जातः, अत्र सर्वमपि साधु एव इति ग्रन्थकारः वदति. अस्तु, इदानीं पूर्वपक्षी किञ्चित्
महोदय तत्र पदस्य अर्थः पदार्थः इति व्युत्पत्त्या अर्थम् अवगन्तुं शक्यते, किन्तु पदः इत्युक्ते किम् इति न अवगन्तुं शक्यते तस्य
लक्षणम्. आम् सत्यमेव. तत्तु पुनः पदम् इत्युक्ते तत्र इदानीं नैयायिकानां चिन्तनं किञ्चित् भिन्नमस्ति. पदम् इत्यस्य तत्र करणीयं, परन्तु न्यायशास्त्रे पदम् इति इत्यस्यापि विशेषरूपेण एतत् पारिभाषिकं पदमेव वर्तते. अत्र किञ्चित् सामान्यरूपेण चिन्तनं करणीयं. पदम् इत्युक्ते व्याकरणदृष्ट्या किं भवति इत्युक्ते सुप्तिङन्तं पदम् अस्माभिः दृष्टमेव. तर्हि व्याकरणदृष्ट्या यदि सामान्यरूपेण वदामः चेत् भोः वयं जानीमः एव व्याकरणं पूर्वं पठितं, पदम् इत्युक्ते सुप्तिङन्तं पदम् इति कृत्वा तस्यापि अर्थः ज्ञातः इति वक्तुं शक्यते. तत्तु सामान्यरूपेण तत्र बालाः एवं चिन्तयेयुः, परन्तु नैयायिकानां पुनः किञ्चित् भिन्नमेव चिन्तनं वर्तते. नैयायिकाः तत्र सुप्तिङन्तं पदम् इति न स्वीकुर्वन्ति, नैयायिकाः सप्तं पदम् इति स्वीकुर्वन्ति. तस्य विषये अनन्तरं शब्दखण्डे यदा पश्यामः तदा तस्य चर्चा भवति, परन्तु सत्यमेव इदानीं सामान्यरूपेण तत्र पदम् इति जानीमः एव इति चिन्तनं करणीयम्। एवं मम चिन्तनमस्ति महोदय।
अस्तु महोदय।
महोदय तद्वदेव मम संशयः आसीत् अत्र पदस्य अर्थः इत्यत्र, अर्थः इति प्रयोजनम् इति किमपि न सामान्य
न प्रयोजनं नास्ति अस्मिन् जगति यत्किमपि अस्ति तत् सर्वोपि अर्थः इति चिन्तनं करणीयं। यत् ज्ञानविषयी भवति अथवा यः शब्दप्रयोगविषयः भवति तदेव अर्थः। अत्र अर्थपदस्य प्रयोजनम् इति अर्थः नास्ति। इदानीं
यत् सामान्यम् अर्थः इति अस्ति तदेव इति
तदेव अर्थः। सत्यं सत्यं तत्र इदानीं न स्मर्यते, परन्तु बात्स्यायन स्वस्मिन् भाष्ये अर्थपदस्यापि सम्यक् निर्वचनं करोति। इदानीं न स्मर्यते, पश्यामः कदाचित्। अस्तु, इदानीं किञ्चिदिव अग्रे सरामः। नन्वत्र विभागादेव सप्तत्वे लब्धे सप्तग्रहणं किमर्थम् इति चेत् न अधिकसङ्ख्याव्यवच्छेदार्थत्वात् इति वदति। अत्र इदानीं किञ्चित् सावधानेन अत्र श्रोतव्यम्। अत्र विषयः किञ्चिदिव गम्भीरः विषयः अस्ति। अत्र वक्तव्यं भवति, दीपिकाग्रन्थे आरम्भे एव तत्र कश्चन क्लिष्टाः अंशाः सन्ति। आरम्भे एव अस्माभिः दृष्टं तत्र मङ्गलस्य विषये अलौकिकाविगितशिष्टाचारविषयत्वम् इति तत्र अनुमानवाक्यम्। अत्र पुनः तत्र सत्तत्वस्य विषये अपि किञ्चिदिव अत्र क्लिष्टता वर्तते, परन्तु सम्यक् रूपेण तत्र परिशीलयामः। आरम्भे एव एतादृशाः अंशाः सन्ति इति कृत्वा सर्वत्र ग्रन्थे एतादृशाः क्लिष्टाः अंशाः एव सन्ति इति चिन्तनं न करणीयम्। तादृशी परिस्थितिः नास्ति। आरम्भे एव किञ्चिदिव तत्र क्लेशः भवतु नाम ननुवत्र विभागादेव न तत्र विभागवाक्यं खलु द्रव्यगुणकर्म, तत्र पदार्थानां विभागः द्रव्यगुणकर्म। एतत् यद् वाक्यम् अस्ति, एतत् वाक्यं विभागवाक्यम्। विभागवाक्यस्य अवगमनेन एव नाम द्रव्यगुणकर्म सामान्यविशेषसमवाय अभाव इति कथनेन एव वयं जानीमः सप्तपदार्थः। तर्हि सप्त इति पदं किमर्थं निवेशितं? विभागादेव सप्तत्वे लब्धे, पुनः सप्त इति सङ्ख्या नास्ति खलु, सप्तसङ्ख्या वा सप्तत्वं सङ्ख्या वा? किम् उक्तं? आम्, तर्हि सप्त इति सङ्ख्या नास्ति, सप्तत्वमेव सङ्ख्या। सप्त इति एकः इति तत्र सङ्ख्या नास्ति, एकत्वं सङ्ख्या भवतु नाम। तद्वयं जानीमः एव, तत्र विद्याधर्यां पठितमेव इति मन्ये। तर्हि सप्तत्वे लब्धे सप्तत्वसङ्ख्यायाः लाभः विभागादेव वयं जानीमः, अस्माकम् अवगमनं भवत्येव, सप्तज्ञानं भवत्येव सप्तपदस्य अनुपादाने इति। न निवेशः न क्रियते चेदपि केवलं तत्र द्रव्यगुणकर्म सामान्यविशेषसमवाय अभावपदार्थाः इति सप्तपद अघटितं वाक्यमपि पठामः चेदपि तत्र सप्तत्वम् अस्ति इति ज्ञानं जायते खलु। किमर्थं तत्र पुनः सप्तत्वग्रहणम् इत्युक्ते तत्र वदति न तथा न वक्तव्यम् अधिकसङ्ख्याव्यवच्छेदार्थत्वा इति वदति। नाम सप्तग्रहणेन किं भवति इत्युक्ते, भोः सप्त अधिक अष्टमपदार्थः नास्ति, सप्त अतिरिक्त अष्टमपदार्थः नास्ति, नवमपदार्थः नास्ति, दशमपदार्थः नास्ति इति अधिकसङ्ख्याया नवत्व दशत्व इत्यादिकानां तत्र व्यवच्छेदः क्रियते इति वदति। अत्र पुनः किमर्थं न्यूनसङ्ख्यायाः व्यवच्छेदार्थं न उक्तं? किमपि चिन्तनं कर्तुं शक्यते वा?
अत्र सप्तपदार्थाः लिखिताः एव,
सत्यमेव। तर्हि न्यूनत्वम् अवगतमेव, द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावः इति उक्तत्वा न्यूनत्वं तत्र सप्तन्यूनाः पदार्थाः सन्ति इति मनसि न भवति सन्देहः, परन्तु सप्त यदि सप्तस्य अनुपादानि कदाचित् भोः ग्रन्थकारेण तत्र न निवेशितम् अस्ति अष्टमः कश्चन पदार्थः इति मनसि सन्देहः जायेत कदाचित्, तर्हि सप्तग्रहणेन किं भवति इत्युक्ते अधिकसङ्ख्यायाः व्यवच्छेदः भवति, तर्हि समुदितार्थः नाम द्रव्यगुण सप्तस्य द्रव्यगुणकर्मसामान्यदेशमयाभावः एतेषां पदार्थानां समुदितार्थः समुदितार्थत्वात् किं लभ्यते इत्युक्ते न्यूनसङ्ख्यायाः अपि व्यवच्छेदः भवति अधिकसङ्ख्यायाः अपि व्यवच्छेदः भवति, परन्तु सप्तपदेन तु अधिकसङ्ख्या एव अधिकसङ्ख्यायाः एव व्यवच्छेदः भवति इति उक्तम्। अस्तु तत्र तत्र अविधेयत्वं ज्ञेयत्वम् अविधेयत्वं पदार्थसामान्यलक्षणम् इति तत्र तत्र ग्रन्थेषु वर्तते, तदर्थमेव वदामि पुनः एकवारं, ज्ञेयत्वं ज्ञेयत्वम् अविधेयत्वं पदार्थसामान्यलक्षणम् इति पदार्थस्य सामान्यलक्षणं तत्र तत्र ग्रन्थेषु दृश्यते। अस्तु इदानीं पूर्वं पूर्वपक्षिणा किं तत्र पृष्ट कः तत्र कः प्रश्नः पृष्टः इत्युक्ते विभागादेव सप्तत्वे लब्धे सप्तग्रहणं किमर्थं भोः इति प्रश्नः पृष्टः। सिद्धान्तिना किमुक्तम् इत्युक्ते भोः आवश्यकमेव तत्, किमर्थम् इत्युक्ते अधिकसङ्ख्यायाः व्यवच्छेदार्थम् आवश्यकम्। इदानीं वदति भोः भवान् वदति अतिरिक्तः पदार्थः नास्ति अधिकसङ्ख्या व्यवच्छेद नाम सप्त अतिरिक्त अष्टमपदार्थः नास्ति इति वदति। इदानीं चिन्तयतु, इदानीं वदतु तादृशः अष्टमपदार्थः प्रमितो न वा इति प्रश्नः इति अत्र कल्पद्वयं विकल्प अत्र विकल्प्य दूषयति। प्रथमकल्पः प्रमितः, द्वितीयकल्पः अप्रमितः, नाम तत्र यस्य निषेधः क्रियते यस्य अष्टमपदार्थस्य निषेधः क्रियते सः अष्टमपदार्थः प्रमितः पदार्थः वा अप्रमितः पदार्थः वा, यः कोऽपि यत् कोऽपि वस्तु यत्किमपि वस्तु भवतु परस्परविरुद्धधर्मद्वयोः मध्ये एकधर्मः तत्र भवेत् एव, वयं जानीमः एव खलु। तत्र घटः अस्ति, घटः अस्ति चेत् यत्किमपि धर्मं स्वीकुर्मः नित्यत्वम् अथवा तस्य विरुद्धधर्म अनित्यत्वं, घटः अस्ति धर्मः अस्ति अनित्यत्वम्, अनित्यत्वस्य अनित्यत्वस्य विरुद्धः धर्मानित्यत्वम्, तर्हि अनित्यत्वं नित्यत्वं परस्पर तत्र विरुद्धौ धर्मौ द्वौ तयोः एकः एकतरः धर्मः घटे भवत्येव, तत्र अनित्यत्वम् अस्ति। यत्र कुत्रापि यत्किमपि वस्तुं स्वीकुर्मः तत्र विरुद्धधर्मद्वयोः एकः धर्मः तत्र भवेदेव। तर्हि इदानीं पश्यति, इदानीं तत्र धर्मरूपेण प्रमितत्वं स्वीकरोति, इदानीं प्रमितत्वं यत्किमपि अष्टमपदार्थः अस्ति भवतः, इदानीं प्रमितत्वं धर्मं स्वीकुर्मः। इदानीं प्रमितत्वं नाम किं, प्रमिति नाम तत्र कोऽपि वदति वा, प्रमिति इति पदस्य को वा अर्थः? प्रमा एव खलु, तर्हि प्रमा इति पदस्य पुनः को वा अर्थः? पुनः पुनः वदतु भगिनि। आं तत्र सम्यक् न श्रुतं, परन्तु भवतु नाम तर्हि प्रमिति नाम वयं जानीमः एव, प्रमिति नाम ज्ञानमेव, ज्ञानं कीदृशं ज्ञानम् इत्युक्ते यथार्थज्ञानम्, अस्माभिः दृष्टं यथार्थज्ञानं, यथार्थज्ञानं नाम किम् इत्युक्ते तद्वति तत्प्रकारकं ज्ञानं, नाम भ्रमात्मकं ज्ञानं न, तत्र यथार्थज्ञानं यादृशं वस्तु अस्ति तादृशं तदनुरूपमेव ज्ञानं यथार्थज्ञानम्, अस्माभिः विद्याधर्यामपि दृष्टं। तर्हि यदि प्रमितः अस्ति चेत् प्रमितः नाम भ्रमज्ञानं नास्ति, भ्रमज्ञानं नास्ति, प्रमितिः अस्ति, तर्हि तद्वस्तु भवेदेव प्रमितः, प्रमितत्वं सः अष्टमः पदार्थः प्रमितो वा न वा इति वदति। इदानीं प्रश्नः कः इत्युक्ते प्रमितस्य निषेधः क्रियते वा अप्रमितस्य निषेधः क्रियते वा इति पूर्वपक्षिणः प्रश्नः। अष्टमया पदार्थः नास्ति इति भवता उक्तं, तादृश अष्टमपदार्थः नास्ति इति उक्तं, तस्य निषेधः कृतः, तर्हि प्रमितस्य अष्टमपदार्थस्य निषेधः कृतो वा अप्रमितस्य अष्टमपदार्थस्य निषेधः कृतो वा? द्वयोः एकः तु तत्र भवेदेव, प्रमितत्वं भवेत् अथवा अप्रमितत्वं भवेत्। अस्तु, इदानीं किं वदति इत्युक्ते नाद्यः नाम प्रमितः, इदानीं नाद्य आद्यः नाम न प्रथमः, तत्र द्वौ कल्पौ स्तः अत्र खलु, प्रमितः वा अप्रमितः वा, तर्हि आद्य नाम प्रमितः, प्रमितः द्वितीयः नाम अप्रमितः, तर्हि आद्यस्य निषेधः न आद्यः कुतः पूर्वपक्षी वदतु कुतः इति इत्युक्ते प्रमितस्य निषेधः योगात्, प्रमितस्य कथं निषेधः कर्तुं शक्यते भोः? प्रमितः इदानीं अष्टमपदार्थः यत् किमपि भवतु, भवतु नाम किमपि, तत् पदार्थः यदि प्रमितः अस्ति चेत् तस्य को वा अर्थः? प्रमितः नाम प्रमितिविषयः सः अष्टमपदार्थः। प्रमिति इति लक्षणेन किं ज्ञायते इत्युक्ते यथार्थज्ञानम् अस्ति इति ज्ञायते, तर्हि तद् वस्तु भवेदेव तदा एव यथार्थज्ञानं जायते। यदि वस्तु नास्ति परन्तु ज्ञानं जायते चेत् सा तद् ज्ञानं प्रमिति न भवति।
अत्र उदाहरणार्थं रज्जु सर्पः स्वीकुर्मः,
तदपि सम्यक् एव, तत् किञ्चिदेव भिन्नम् अस्ति अत्र, तस्य विषये अनन्तरं, तत्र द्रव्यकथनावसरे अबाधितप्रतीतिः इति तत्र विषयः आयाति, बाधितविषयाः तत्र सन्ति रज्जु किञ्चिदिव तत्र, परन्तु अत्र किमस्ति इत्युक्ते प्रमितस्य इदानीं घटः अस्ति, इदानीं पश्यामः घटः प्रमितो वा न वा, मम सा पुरतः साक्षात् घटः अस्ति, सः घटः प्रमितः, यदि प्रमितः नाम ज्ञान प्रमाविषयीकृतः, तस्य प्रमा इति लक्षणकथनादेव किं ज्ञायते इत्युक्ते सत्त्वभूतस्य घटस्य ज्ञानम् इति, प्रमापदार्थादेव पदस्य अर्थादेव ज्ञायते सत्त्वभूतस्य, यस्य सत्ता अस्ति, एक्सिस्टेन्स् अस्ति, तस्य एव विषयस्य ज्ञानम् इति प्रमितिज्ञानं। तर्हि प्रमितस्य निषेधः कर्तुं शक्यते वा? नाम इदानीं मनसि प्रश्नः उदेति, भोः किं वदति, घटस्य तु निषेधः वयं कुर्मः खलु, अत्र घटः नास्ति इति वदामः, घटः प्रमितः भवति कदाचित्, तदनन्तरं तत्र अहं घटः अत्र नास्ति इति तु वदामि खलु, तादृशः अर्थः अत्र न विवक्षितः, नाम निषेधः इत्युक्ते सर्वथैव घटो नास्ति इति अर्थः निषेधः, कालदेशनिर्बन्धेन घटो नास्ति इति न अभिप्रायः, कालनिर्बन्धः घटनिर्बन्धः नाम अस्मिन् काले इदानीम् अत्र घटः नास्ति, तादृशः निषेधः अत्र न कृतः, सर्वथैव नास्ति इति निषेधः कृतः, परन्तु इदानीं वदति प्रमितस्य निषेधः, पूर्वं दृष्टम् आसीत् सत्त्वभूतं प्रमिति अपि जाता, तस्य निषेधः कर्तुं न शक्यते खलु, एकवारं प्रमिते चेत् तद्वस्तु अस्ति इति भवत्येव, तर्हि प्रमितस्य निषेधः कर्तुं न शक्यते इति इदानीं वदतु, इति स्पष्टम् अस्ति वा न वा? प्रश्नः अस्ति वा?
घटः पश्येत् चेत् अनित्यत्वं पश्यामः, परन्तु नित्यत्वम् अस्ति तत्र अन्ते
एकवारं पुनः वदति वा भगिनि पुनः?
घटे पश्येत् चेत् अनित्वम् एव यादृच्छ्य, परन्तु घटे अन्ते नित्यत्वम् एव अस्ति,
नाम तत्र घट नाम कार्यपदार्थः, कार्यपदार्थानां तत्र सर्वदैव अनित्यत्वमेव नैयायिकानां सिद्धान्तितं वर्तते, कार्यपदार्थः यत् उत्पत्तिमान् यो भवति तत्र तत्र कार्य भवति चेत् यत्र यत्र कार्यत्वं तत्र तत्र अनित्यत्वम् इति व्याप्तिः स्वीकृता नैयायिकैः, घटस्य ध्वंसो जायते इति कृत्वा तत्र अनित्यत्वं वर्तते इति अर्थः। परमाणवः तु नित्याः तत् सत्यं, परन्तु परमाणान् तु घटः न, परमाणवः तु अवयवाः, घटस्तु अवयवी, तर्हि अवयविनः नाशः जायते, अवयवानां नाशः न जायते परमाणूनाम् इति सत्यं, तत्र नित्यत्वम् अस्ति, परन्तु घटस्य तु नाशः भवति इति कृत्वा तत्र अनित्यत्वं घटे वर्तते। तत्तु अनित्यत्व तत् केवलं तत्र उदाहरणरूपेण विरुद्धधर्मौ द्वयोः धर्मयोः मध्ये एकः भवत्येव इति प्रदर्शनार्थमेव तत्र उदाहरणं स्वीकृतम्। अत्र विरुद्धौ धर्मौ द्वौ प्रमितत्वं अप्रमितत्वम् इति द्वे विरुद्धे तत्र द्वौ विरुद्धौ धर्मौ। पुनः प्रमितस्य निषेधः प्रथमकल्पस्य इदानीं तत्र विकल्पद्वयमस्ति, द्वयोः एकः भवेदेव। इदानीं प्रथमकल्पं स्वीकृत्य प्रमितस्य विषये किञ्चित् चर्चां करोति। किं वदति इत्युक्ते, प्रमितस्य अष्टमपदार्थस्य निषेधः क्रियते वा भवता इति पूर्वपक्षी सिद्धान्तिनं प्रति पृच्छति। तर्हि पूर्वपक्षी वदति, भोः तथा कर्तुं न शक्यते खलु, किमर्थम् इति चेत् प्रमित इति पदेन प्रमाविषयीकृत इति अर्थलाभः जायते। प्रमाविषयीकृतः यः वस्तु तत् तेनैव प्रमाविषयीकृतः इति कारणेन एव तद् अस्ति, तदासीत् इति स्वीकर्तव्यं भवति। अतः तस्य अत्यन्त अभाकस्य निषेधः, सर्वत्र अष्टमपदार्थः कदापि नासीत् इत्यात् तादृशः निषेधः कर्तुं न शक्यते इति पूर्वपक्षिणः आक्षेपः इति। इदानीं तत्र रक्षाभगिनी किञ्चिदिव तत्र प्रतिपादनं करोति वा इति अवगम्यते वा?
प्रयत्नं करोमि महोदय। अत्र ननु अतिरिक्तः पदार्थः प्रमितो न वा इति, पुनः ननु इत्यस्मात् यत्किमपि आरभ्यते तत्तु पूर्वपक्षिणः आक्षेपः इति उक्तमासीत् भवता। हा, पूर्वपक्षी पृच्छति अतिरिक्तः अधुना एकः पदार्थस्य निषेधः व्यवच्छेदार्थं तत्र सप्त इति स्थापितं, तर्हि कस्य निषेधः क्रियते भवता? सः अतिरिक्तः पदार्थः प्रमितः पदार्थः वा, इत्युक्ते प्रमा यथार्थज्ञानेन जातः पदार्थः वा, अथवा अप्रमितपदार्थः वा, कस्य निषेधः क्रियते भवता इति पृच्छते। उत्तरत्वेन वदति न आद्यः, इत्युक्ते न प्रमितस्य, अपि तु अप्रमितस्य निषेधः क्रियते। कुतः इति चेत् प्रमितस्य
नाम इदानीम् अप्रमितस्य विषये न, अत्र केवलं प्रमितस्य विषये एव वदति।
प्रमितस्य निषेधायोगात्, अत्र निषेध अयोगात् इति खलु महोदय?
आं सत्यं।
तर्हि यः पदार्थः प्रमायाः कारणेन जातः, यथार्थज्ञानेन जातः, तत्तु अस्ति एव, तस्य निषेधः कथं वा करणीयः इति कृत्वा निषेध अयोगः अस्ति अत्र।
न शक्यते प्रमितस्य निषेधः कर्तुं न शक्यते इति उक्तम्। अस्तु, धन्यवादः। इदानीं किञ्चिदिव पश्यामः, नान्त्यः, अन्त्यः नाम द्वितीयः, नान्त्यः नाम न अप्रमितस्यापि निषेधः कर्तुं न शक्यते। किमर्थमिति चेत् प्रतियोगी प्रमितिं विना निषेध अनुपपत्ते। पूर्वपक्षी वदति, भोः अप्रमितस्य निषेधः कर्तुं न शक्यते। किमर्थम् अप्रमितस्य निषेधः कर्तुं न शक्यते इत्युक्ते, निषेधः नैयायिकानां कः सिद्धान्तः इत्युक्ते, प्रतियोगिज्ञानाधीनमेव अभावज्ञानं, निषेध नाम अभावः। तर्हि प्रतियोगिनमेव अस्माभिः न ज्ञातं, प्रतियोगिनः एव तत्र ज्ञानं न जातं, तर्हि अभावः अस्ति इति वक्तुं न शक्यते। प्रतियोगी भवति चेदेव अभावः तस्य। तर्हि अप्रमितस्य, यस्य ज्ञानं सर्वथा न जातं, यत् कदापि न ज्ञातं, यस्य सत्त्वं कदापि न स्वीकृतं, तस्य अभावः वक्तुं न शक्यते। कुतः इति चेत् अभावज्ञानमेव न जायते, प्रतियोगी ज्ञानानन्तरमेव अभावज्ञानं जायते। तर्हि अप्रमितस्य निषेधः अभावः अस्ति इति वक्तुं न शक्यते इति वदति। इदानीं किञ्चिदिव अत्र
प्लुतः आगच्छत्
पुनः पुनः पृच्छति इति स्पष्ट स्पष्टं न श्रूयते.
नाद्यः तुलितं तत्र आगच्छत् खलु.
आम् आम् तत्र नाद्यः इत्युक्ते आद्यः नाम प्रथमः, आदौ यदस्ति सः आद्यः, आदौ भवः आद्य. तर्हि द्वयोः कल्प अत्र प्रमित प्रमितो न वा, न वा इत्युक्ते प्रमितो अथवा अप्रमितो इति अर्थः, न वा विकल्पः. तर्हि प्रथमं प्रथमकल्पे अस्ति प्रमितः, तर्हि आद्यः आदौ भवः आद्यः प्रमितः, अन्त्यः इत्युक्ते द्वितीयः अप्रमितः. स्पष्टमस्ति वा भगिनि? आम् अस्तु अस्तु. इदानीं प्रतियोगी प्रमितिं विना तत्र प्रतियोगी ज्ञानाधीनज्ञान ज्ञानवत्वम् इति लक्षण स्वरूपमासीत् अभावस्य. तर्हि प्रतियोगिना एव ज्ञानमस्ति चेत् अभावः अस्य अस्ति इति इत्याकारकः निषेधः अनुपपत्ति निषेधस्य अनुपपत्तिः भवति इति कृत्वा तर्हि प्रमितस्यापि निषेधः कर्तुं न शक्यते अष्टमपदार्थस्य, अप्रमितस्यापि अष्टमपदार्थस्य निषेधः कर्तुं न शक्यते. तर्हि कस्य निषेधः भोः इति पूर्वपक्षी पृच्छति. निषेधः व्यवच्छेदः निषेधः इति कृतः, प्रमितस्यापि निषेधः कर्तुं न शक्यते इति अस्माभिः दृष्टम्, अप्रमितस्यापि निषेधः भवतः सिद्धान्तानुसारेण कर्तुं न शक्यते, तर्हि कस्य निषेधः भोः इति पूर्वपक्षिणः चिन्तनम्. इदानीम् अत्र किञ्चिदिव तत्र प्रतियोगिनः ज्ञानं विना निषेधः न युक्तः इति नैयायिकानां सिद्धान्तः. अत्र कश्चन एकः श्लोकः नैयायिकाः किं वदन्ति इत्युक्ते तत्र अर्थः अर्थस्य तत्र सत्वम् आवश्यकम्, अर्थः भवेदेव, शब्दानां यः अर्थः भवति तस्य सत्ता भवत्येव, सत्ता सत्तया विना विना सत्तां तत्र कथमेव कर्तुं न शक्यते, तत् सर्वमपि भ्रमात्मकं, तत्र सम्यक् रूपेण ज्ञानं न जायते. यथा उदाहरणरूपेण ते वदन्ति सससृङ्गम् इति. सससृङ्गम् इति वक्तुं शक्यते वा अस्मिन् जगति? ससः इति ज्ञायते खलु
न महोदय?
आम् ससः इत्युक्ते रेबिट् एवम्. आमां खर्गोश् इति रेबिट्, खर्गोश् इति खलु हिन्दीभाषायां? तर्हि तस्य शृङ्गं न भवति. तर्हि ससशृङ्गम् इति पदार्थः न भवति. तर्हि ससशृङ्गं नास्ति इति निषेधवाक्यं वक्तुं न शक्यते नैयायिकानां सिद्धान्तानुसारे. यदि प्रतियोगी अस्ति चेदेव तस्य निषेधः कर्तुं शक्यते. तर्हि ससशृङ्गं नास्ति एव, ससशृङ्गम् असत्त्वभूतस्य पदार्थस्य निषेध अयोगः. तर्हि ससशृङ्गं नास्ति इति कथनस्य कोऽपि अर्थवत्ता नास्ति तत्र इति नैयायिकाः वदन्ति. इदानीं वैयाकरणानां चिन्तनं किम् इत्युक्ते भोः सत्त्वं न आवश्यकं, वस्तु सर्वदैव भवेत् इति न आवश्यकं. किमर्थमिति चेत् वैयाकरणानां चिन्तनम् अस्ति पदार्थाः तत्र बुद्धिस्थाः अपि भवितुम् अर्हन्ति. पदार्थाः बुद्धिस्थाः, बौद्धाः पदार्थाः इति वैयाकरणानां चिन्तनम्. तर्हि तेषां चिन्तनानुसारेण तत्र एकं श्लोकं वदामि. तत्र श्लोकः वर्तते. श्लोकः कः इत्युक्ते तत्र श्लोककथनानन्तरं समापयामः. श्लोकः कः इत्युक्ते वदति मरीचिकां भसिस्नातः हपुष्पकृतशेखरः एष बन्ध्या सुतो याति ससशृङ्गधनुर्धरः. तत्र किञ्चित् तत्र मन्दं पठामि एकवारं. मरीचिकां भसि अम्भसि, अम्भस् नाम तत्र जलं, मरीचिकां भसि स्नात, मरीचिका तत्र मरुभूमौ, तत्र यत् जलं मृगमरीचिका नाम मिराज् इति वदन्ति खलु, तत्र तस्मिन् जले स्नात, तत्र जलमेव नास्ति चेत् कथं स्नानं? तर्हि पुनः वदति मरीचिकां भसि स्नातः, तादृशस्नानं तत्र स्नानं कृत्वा पुनः किं कृत्वा इत्युक्ते खपुष्पकृतशेखर नाम खं नाम आकाशम्, आकाशः, आकाशे पुष्पं भवति वा, आकाशपुष्पं भवति वा? न भवत्येव. आम् खपुष्पकृतशेखरः आकाशपुष्पं तत्र शिरसि स्थाप्य अलङ्कृत्वा इति अर्थः खपुष्पकृतशेखर. एष बन्ध्या, कस्य बन्ध्या सुतो याति, पुनः बन्ध्यायाः सुतः एव न भवति, पुनः बन्ध्यासुत इत्यस्य कोऽपि अर्थः नास्ति। तर्हि तस्य बन्ध्यासुतो याति पुनः कीदृशः बन्ध्यासुतः इत्युक्ते सहस्रिङ्गधनुर्धरः। तेन धनुः तत्र धनु निर्मिता केन कं द्रव्यमादाय निर्मिता इत्युक्ते सहस्रिङ्गमादाय धनुर्निर्मिता वर्तते। एतादृशस्य श्लोकस्य नैयायिकमते कोऽपि अर्थः अस्ति वा इत्युक्ते यावत् मम ज्ञानमस्ति नैयायिकानां मते तत्र अर्थः नास्ति। किञ्चित् भिन्नरूपेण तैः अर्थस्य निष्पादनं कृतं परन्तु वैयाकरणानां मते तु एतादृशस्य श्लोकस्य अर्थः विद्यते। कुतः इति चेत् ते अस्तु मरीचिकाम्ब तत्र जलं नास्ति एव परन्तु तत्र बुद्धिस्थं जलं तु अस्ति खलु, बुद्धिस्थ अबौद्धपदार्थाः तत्र वैयाकरणानाम् अभिमताः इति कृत्वा मरीचिकां बस् नास्ति जलं नास्ति इति तेषां कृते तु तत्र निषेधवाक्यमपि वक्तुं तत्र न कोऽपि क्लेशः आपत्तिः नास्ति। कुतः इति चेत् तेषां बौद्धाः पदार्थाः तैः तत्र वैयाकरणैः स्वीकृताः, नैयाकरणैः तन्न स्वीकृतम्। भवतु नाम तत्र अग्रिमे वर्गे अनुवर्तयामः, किञ्चिदिव गभीरः विषयः अस्ति, तत्र चिन्तनं कुर्वन्तु। किमुक्तं भगिनि?
सस्यस्य शृङ्गः
आमामां तत्र किञ्चित् नैयायिका सस्यशृङ्गं नास्ति इत्यस्य तत्र किञ्चित् सार्धबोधं कुर्वन्ति एव, कथं कुर्वन्ति तत्र अग्रिमे वर्गे पश्यामः। अस्तु तर्हि अनेन समापयामः। नमस्कारः, धन्यवादः।
धन्यवादः।
नमस्कारः, धन्यवादः।